उपसंहारः। ओम् अस्य श्रीनवार्णमन्त्रस्य ब्रह्मविष्णुरुद्रार्षयः गायत्रिष्णुगणिष्ठच्छन्दांसि श्रीमहाकाली महालक्ष्मी महासरस्वत्यो देवताः ऐं बीजम् ह्रीं शक्तिः क्लीं कीलकम् श्रीमहाकाली महालक्ष्मी महासरस्वती प्रीत्यर्थे जपे विनियोगः। ब्रह्मविष्णुरुद्रऋषिभ्यो नमः शिरसि गायत्रिष्णुगणिष्ठच्छन्दोभ्यो नमः मुखे। महाकाली महालक्ष्मी महासरस्वती देवताभ्यो नमः हृदि ऐं बीजाय नमः गुह्ये। ह्रीं शक्तये नमः पादयोः क्लीं कीलकाय नमः नाभौ। ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे। ॐ ऐं अङ्गुष्ठाभ्यां नमः। ॐ ह्रीं तर्जनीभ्यां नमः। ॐ क्लीं मध्यमाभ्यां नमः। ॐ चामुण्डायै अनामिकाभ्यां नमः। ॐ विच्चे कनिष्ठिकाभ्यां नमः। ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे करतलकरपृष्ठाभ्यां नमः। ॐ ऐं हृदयाय नमः। ॐ ह्रीं शिरसे स्वाहा। ॐ क्लीं शिखायै वशते। ॐ चामुण्डायै कवचाय हुम्। ॐ विच्चे नेत्रत्रयाय वौषट। ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे अस्त्राय फट्। ॐ ऐं नमः शिखायाम्। ॐ ह्रीं नमः दक्षिणनेत्रे। ॐ क्लीं नमः वामनेत्रे। ॐ चां नमः दक्षिणकर्णे। ॐ मुं नमः वामकर्णे। ॐ डां नमः दक्षिणनासापुटे। ॐ यैं नमः वामनासापुटे। ॐ विं नमः मुखे। ॐ चें नमः गुह्ये। ॐ ऐं प्राच्यै नमः। ॐ ऐं आग्नेय्यै नमः। ॐ ह्रीं दक्षिणायै नमः। ॐ ह्रीं नैऋत्यै नमः। ॐ क्लीं प्रतीच्यै नमः। ॐ क्लीं वायव्यै नमः। ॐ चामुण्डायै उदीच्यै नमः। ॐ चामुण्डायै ऐशान्यै नमः। ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ऊर्ध्वायै नमः। ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे भूम्यै नमः। ध्यानम्। खड्गम् चक्रगदेषु चापपरिधान् शूलम् भुशुण्डीम् शिरः शङ्खम् सन्दधतीम् करैस्त्रिनयनाम् सर्वाङ्गभूषावृताम् नीलाश्मद्युतिमास्य पाददशकाम् सेवे महाकालिकाम् यामस्तोत्स्वपिते हरौ कमलजो हन्तुम् मधुम् कैटभम् अक्षस्रक्परशुम् गदेषु पुलिशम् पद्मम् धनुष्कुण्डिकाम् दण्डम् शक्तिमसिम् च चर्मजलजम् घण्टाम् सुराभाजनम् शूलम् पाशसुदर्शने च ददतीम् हस्तैः प्रसन्नाननाम् सेवे सैरिभमर्दिनीमिह महालक्ष्मीम् सरोजस्थिताम् घण्टाशूलहलानि शङ्खमुसले चक्रम् धनुःसायकम् हस्ताब्जैर्दधतीम् घनान्तविलसच्छीताम् श्रुतुल्यप्रभाम् गौरीदेहसमुद्भवाम् त्रिजगतामाधारभूताम् महापूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनी। ऐं ह्रीं अक्षमालिकायै नमः। ॐ माम् माले महामाये सर्वशक्तिस्वरूपिणि चतुर्वर्गस्त्वयीन्यस्तस्मान्मे सिद्धिदा भव। ओम् अविघ्नम् कुरु माले त्वम् गृह्णामि दक्षिणेकरे जपकाले च सिद्ध्यर्थम् प्रसीद मम सिद्धये ओम् अक्षमालाधिपतये सुशुद्धिम् देहि देहि सर्वमन्त्रार्थसाधिनि साधय साधय सर्वसिद्धिम् परिकल्पय परिकल्पय मे स्वाहा गुह्यादिगुह्यगोप्त्री त्वम् ग्रहाणास्मत्कृतम् जपम् सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरी ओम् ह्रीम् अङ्गुष्ठाभ्याम् नमः ओम् चम् तर्जनीभ्याम् नमः ओम् डिम् मध्यमाभ्याम् नमः ओम् ताम् अनामिकाभ्याम् नमः ओम् यैम् कनिष्ठिकाभ्याम् नमः ॐ ह्रीम् चण्डिकायै करतलकरपृष्ठाभ्याम् नमः ॐ खड्गिनी शूलिनी घोरागदिनी चक्रिणी तथा शङ्खिनी चापिणी बाणभुषुण्डी परिघायुधा हृदयाय नमः ॐ शूलेन पाहिनो देवि पाहि खड्गेन चाम्बिके घण्टास्वनेन नः पाहि चापद्यानिस्वनेन च शिरसे स्वाहा ॐ प्राच्याम् रक्ष प्रतीच्याम् च चण्डिके रक्ष दक्षिणे ब्राह्मणेनात्मशूलस्य उत्तरस्याम् तथेश्वरी शिखायै भषट ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते यानि चात्यर्थघोराणि तैरक्षास्माम् सदा भुवम् कवचायहुम् ॐ खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः नेत्रत्रयाय बौषट् ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते भयेभ्यस्त्राहिणो देवि दुर्गे देवि नमोऽस्तु ते अस्त्राय फट् ध्यानम् ॐ विद्युद्दामसमप्रभाम् मृगपतिस्कन्धस्थिताम् भीषणाम् कन्याभिकरबालखेटविलसद्धस्ताभिरासेविताम् हसैश्चक्रगदासिखेटविशिखांश्चापम् गुणम् तर्जनीम् बिभ्राणामनलात्मिकाम् शशिधराम् दुर्गाम् त्रिनेत्राम् भजे